एषा रेडियो नेपालः सम्प्रति समाचारः श्रीयन्ताम् प्रवाचकः ध्रुव भट्टराई आगामिनो मार्ग शीर्षमा छ चतुर्थी दिवसीय सम्पत समानाय प्रतिनिधि सभाय प्रदेश सभानाम च सदस्यानाम प्रत्यक्ष प्रणाल्या पक्षस्य निर्वाचनाय अद्य प्रत्याशिनाम मनोनयनम पञ्जीक्रियमाणम् वर्तते। आराष्ट्र मुख्य निर्वाचनाधिकृतानाम कार्यालयानाम निर्वाचनाधिकृतानाम कार्यालयानाम च माध्यमेन अद्य पूर्वाह्नस्य दशवादनात् सायं पञ्चवादन यावत् प्रत्याशिनाम मनोनयनस्य पञ्जीकरणाय निर्वाचन आयोगेन समय निर्धारितो वर्तते। प्रत्याशिनो निर्वाचनाधिकृतानां कार्यालयेषु स्वयं उपस्थिते असामर्थ्यं सत् प्रतिनिधिर्माध्यमेनापि प्रत्याशिता प्रस्तुतं शक्यते इति प्रमुख निर्वाचनायुक्तः दिनेश कुमार थपलिया अवोचत। अत्रान्तरे निर्वाचनायोगेन मार्गशीर्षमासस्य चतुर्थी दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभाय प्रदेशसभानां च निर्वाचनस्य पूर्वकार्यं प्रपूरितमिति निर्वाचनायोगो ज्ञापयति। आयोगेन ह्य काष्ठमण्डपे पत्रकार सम्मेलन आयोज्य निर्वाचनस्य सम्पूर्ण पूर्व कार्याणि प्रपूरितानि। अद्य प्रत्यक्ष पक्षस्य मनोनयनस्य पञ्जीकरणम् अनु निर्वाचनस्य चरणे प्रविश्यति इति ज्ञापितमस्ति। आयोगेन निर्वाचनस्य दिनांकानां घोषणाम् अनु सम्प्रति निर्वाचनाय आवश्यक सामग्रीणां क्रयणस्य परिवहनस्य च कार्यं सम्पाद्य मुख्य निर्वाचनाधिकृत निर्वाचनाधिकृतानां कार्यालयानां माध्यमेन व्यवस्थापनस्य कार्याणि विधेयमानानि सन्तीति प्रमुख निर्वाचनयुक्तः थपलिया अज्ञापयत्। आयोगेन प्रतिनिधिसभाय प्रदेशसभानां च द्वयोरेव पक्ष यो मनोनयनस्य आराष्टम् एकस्मिन्नेव दिने सम्पादनत्वेन आवश्यक संरचना जनशक्ति सुरक्षा प्रबन्धश्च व्यवस्थिता सन्तीति ज्ञापितम् वर्तते। प्रमुख निर्वाचनयुक्त थपलिया अविरल वृष्टि जलविप्लव भूस्खलनयोश्च कारणेन अद्य निर्धारिते मनोनयन पञ्जीकरण कार्यक्रमे सम्भाव्यम् प्रभावसर्जनम् रोद्धुम् राजनीतिक दलैः निरन्तरम् परामर्शन विधीयमानमस्ति। सहजीकरणाय आयोग सारल्यम् च अवलम्बते इत्यभासत। आगामिनो मार्ग शीर्ष मासस्य चतुर्थी दिवसे सम्पत्स्यमानाय प्रतिनिधिसभाय प्रदेशसभानां च निर्वाचनाय नेकपा एमाले दलस्य जसपा नाम्नो जनता समाजवादी दलस्य च मध्ये नैर्वाचनिक समन्वय स्थानानाम् आवंटने सहमतिर्धृता वर्तते। एमाले दलाध्यक्षस्य केपी शर्मा ओलिनो भक्तपुरस्य बालकोट भर्तिनी निवासे अध्यक्षस्य ओलिना जसपा दलाध्यक्षस्य उपेन्द्र यादवस्य च मध्ये सहमति पत्रे हस्ताक्षरम् सम्पन्नं वर्तते। सभा निर्वाचने इमाले दलाय पञ्चत्रिंशत् स्थानेभ्यो जसपा दलेन जसपा दलाय च सप्तदश स्थानेभ्य इमाले दलेन सहयुक्तम् सहमतिर्धृता वर्तते। एवमेव प्रदेशसभानाम् निर्वाचने इमाले दलाय सप्तत्यम् स्थानेषु जसपा दलेन जसपा दलाय च द्वि चत्वारिंशत् स्थानेषु इमाले दलेन सहयोग प्रदानत्वेन स्थानानाम् आवंटनस्य सहमति सम्पन्ना इति इमाले दलम् ज्ञापयति। अध्यक्षद्वयस्य ओलिन यादवस्य च मध्ये द्रुत समन्वयानि निर्वाचन क्षेत्राणि विहाय अन्यत्रापि दलद्वय नैव मैत्रीपूर्ण प्रतिस्पर्धनं विधातुं सहमति पत्रे उल्लिखितं वर्तते। नेकपा एकीकृत समाजवादिना आगामिनो मार्ग शीर्ष मासस्य चतुर्थी दिवसे सम्पत्स्यमानाय निर्वाचनाय प्रतिनिधिसभाया कृते प्रत्यक्ष पक्षस्य प्रत्याशिनां नामानि निर्णीतानि सन्ति। घटबन्धनस्य पक्षत पञ्चषष्ट्यधिक सदस्य निर्वाचन क्षेत्राणां मध्ये ऊनविंशतिम् स्थानानि प्राप्तवता अनेन दलेन सर्वेषां प्रत्याशिनां नामानि निर्णीतानीति महासचिव डा बेदुराम भूषाल अज्ञापयत्। दलाध्यक्ष माधव कुमार नेपाल रौतहट जनपदस्य प्रथम निर्वाचन क्षेत्रात् नेता झलनाथ खनालस्य इलाम जनपदस्य प्रथम निर्वाचन क्षेत्रात् प्रत्याशिनौ निर्धारितौ स्तः। सभामुखेन अग्निप्रसाद सापकोटा विधेन आगामिनो मार्ग शीर्ष मासस्य चतुर्थी दिवसे सम्पत्स्यमानि प्रतिनिधिसभा सदस्यस्य निर्वाचने प्रत्याशी न भवितुम् उद्घुष्टम् वर्तते। सिंहप्रासाद स्थिति स्वस्य कार्यकक्षे ह्य आयोजिते पत्रकार सम्मेलने सभामुख सापकोटा राजनीतिक दलानाम् अभ्यन्तरे प्रत्याशिनाम् अनुमति प्राप्त्यर्थं तीव्रं प्रतिस्पर्धन समये आत्मना युव सन्तते अवसरं प्रदाय नेतृत्वं प्रापयितुं सहयोग प्रदानस्य हेतु एतस्मिन् समये प्रत्याशितम् न प्रस्तुतम् निर्णीतमिति अवदत्। निरन्तरम् पञ्चदश वर्षाणि यावत् जनप्रतिनिधिर्भूमिकायाम् प्राप्तयन्तीम् सिन्धु पाल्चोक जनपदस्य जनतामा मतदातृं च प्रति आभारं प्रकटयन् सभामुख सापकोटा आगामी दिनेष्वपि जनताय समस्यानां समाधानाय राष्ट्रस्य विकासाय च सक्रियतया कार्यं विधास्यति इत्यभासत। सभामुख सापकोटा ह्य एव सर्वकारीय निवासम् अत्यजत्। नेकपा एमाले दलस्य स्थायी समिति सदस्यन घनश्याम भूषालेन दल परित्याग उद्घोष्टो वर्तते। आकृति पुस्तिका सामाजिक सञ्जाल माध्यमेन नेता भूषाल दलाध्यक्ष केपी शर्मा ओलिन दम्भस्य स्वेच्छाचारितास कारणेन दले अवस्थिति अवस्थाय अभावात दलात पृथक भूतमिति उदलिखत। पञ्चचत्वारिंशत् वर्षाणि यावत् स्वयं समर्पित सम्पूर्ण सामर्थ्य दले नीते विदेश पुनस्थापनाय कस्या अपि सम्भावनाय अदर्शनात् दले न स्थातुं निष्कर्ष प्राप्त इति च असौ उदलिखत। विजयादशमी पर्वण अन्तिम दिने अद्य कोजाग्रत पूर्णिमा वर्तते। अवसरेसन् देशव्यापित्वेन धनधान्य सम्पन्नतानाम् अधिष्ठात्रा महालक्ष्म्यः सविशेषम् पूजन स्तवनाराधनानि विधीयन्ते। पौराणिक कथनानुसारेण कोजाग्रत पूर्णिमा रात्रो लक्ष्मी धरायम् परिभ्रमति, यो जागरित तिष्ठति तत प्रसन्ना सा तस्मै यथेष्टम् धनम् च प्रयच्छतीति विश्वस्यते। अस्यामेव तिथौ वैकुण्ठ धाम्न कः जागरित अस्तीति ज्ञातुम् धरायम् कदाचित् आगता लक्ष्मी। कस्मिंचित् कृषक दम्पत्यु गृहे प्रज्वलितं दीपं विलोक्य तस्थौ कृषक दम्पति च तया धनिनौ कारितौ इति पौराणिक मान्यतम् आश्रित्य जनैः ततः प्रवृत्ति। अस्मिन् पूर्णिमा पर्वणि महालक्ष्मी रात्रि चारण पूर्वकं सविशेषं पूजिता आराधिता च इति जनविश्वास प्रतिष्ठितो वर्तते। कः जागरित इति व्युत्पत्तिश्च अमुम् एव अर्थं सूचयति। विजयादशम्या प्रारब्धम् टीका एवं कुराणाम् परिधापन कार्यम् अस्मात् दिवसात् पूर्णतामेति। आस्मिन् कृष्ण प्रतिपदि सविधि स्थापितानाम् घट एवं कुराणाम् विसर्जनमपि अस्यामेव तिथौ सम्पाद्यते। कोजाग्रत पूर्णिमा पर्व नेपालीनाम् कृते आगामी दीपावली पर्वण सूचकम् च मन्यते। स्वस्थन दिवसात् मासम् यावत् पवित्र जलाशयेषु कुण्डादिषु च विधेयम् स्नातुम् महापुण्यप्रदम् मन्यते। एतत् कार्तिक स्नान नाम्ना व्यवह्रियते। अस्य पूर्णिमा एव आकाश दीप प्रज्वालन परम्परा प्रारभ्यते। कर्मेदम् ग्रह नक्षत्राणाम् सम्मानाय सम्पद अधिष्ठात्रा महालक्ष्मी प्रसन्नताय च अनुष्ठीयते। भागवत पुराणस्य अनुसारेण अद्य रात्रौ चन्द्रमस किरणेभ्य अमृतम् वर्षतीति विश्वस्यते। अस्यामेव रात्रौ कश्चित् स्थानेषु भगवत श्रीकृष्णस्य रासोत्सवस्य समायोज्यते। इदमेव दिनम् शरद पूर्णिमा नाम्नि च प्रथितम् वर्तते। जुम्ला जनपदे यो भूस्खलनेन गृहं पूरितं सत् एकस्यैव परिवारस्य सप्तजना मृता जनद्वयम् आहतं च वर्तते। जुम्ला जनपदस्य कनका सुन्दरी ग्रामपालिकाया पञ्चवटा क्षेत्रस्थिते बारकोटी बाडास्थाने स्थानीयस्य गणेश बहादुर साहिनु गृहे भूस्खलनेन पूरितै सती सप्तजना घटनास्थल एव मृता इति जुम्ला जनपदस्य प्रहरी नायब उपरीक्षक नरेन्द्र चन्द अज्ञापयत्। प्युठान जनपदस्य माण्डवी ग्रामपालिकाया चतुर्थवडा क्षेत्रस्थिति फरिण्डे स्थाने परह्यो दुरापन्नेन भूस्खलन निपत्य विलुप्तानाम् षण्णाम् जनानाम् मध्ये जनत्रस्य सभा ह्य प्राप्त सन्तीति जनपद प्रहरी कार्यालयस्य प्रवक्ता प्रहरी निरीक्षकश्च सुशील थापा मगर ज्ञापयति। मकवानपुरे अविरल वर्षाणाम् अनन्तरम् दुरापन्नौ जलविप्लव भूस्खलनौ निपत्य जनद्वयम् मृतमस्ति। मृतकौ राक्षीराङ ग्रामपालिकाया षष्ठवडा क्षेत्र वर्तिनु मागेनी स्थानीय सप्तचत्वारिंशत् वर्षीय तोक बहादुर चेपाङ, कैलाश ग्रामपालिकाया तृतीयवडा क्षेत्र कालीखोला स्थानीय पञ्चषष्ठी वर्षीय दलबहादुर चेपाङ च स्थ इति मकवानपुर जनपद प्रहरी कार्यालय ज्ञापयति। गृहमन्त्री बालकृष्ण खाँड देशस्य विभिन्नेषु भागेषु निरन्तरं वर्षाण पश्चात् दुरापन्नानां जलविप्लव भूस्खलन जलमग्नतानां कारणेन विस्थापितानां जनानां उद्धारोपचार सहायता पुनस्थापनानां कृते हेलिकप्टर यानं प्रयोक्तुं गृह प्रशासनं निर्दिशति। गृह मन्त्रालयस्य विभिन्ने अधिकारीभि सहयो दूरभाष सम्पर्कं विधाय गृहमन्त्री खाँड सर्वकारस्य मुख्य दायित्वं नागरिकाणां जीवधनयो सुरक्षाम् अस्तित्व ब्रुवन् विपत्ति प्राप्तानां जनानां तत्कालं उद्धारस्य व्यवस्थां विधातुं निरदिशत्। राष्ट्रपति विद्यादेवी भण्डारी यामज ज्वरस्य कारणेन महाराजगंज वर्तिनी शिक्षण चिकित्सालय प्रविष्टा वर्तते। राष्ट्रपति भण्डारिण स्वास्थ्य समस्योत् भवनम् अनु परीक्षणाय असौ चिकित्सालय प्रविष्टा इति एतदीय स्वकीय सचिव भेषराज अधिकारी अज्ञापयत्। स्वकीय सचिवस्य अधिकारिण अनुसारेण राष्ट्रपति भण्डारी शुक्रवासरत काश प्रतिशा ज्वरै पीडिता अस्ति।